इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः सुरेश चन्द शर्मा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी गतदिने नवदेहल्यां नीति आयोगस्य दशमे शासकीय परिषद उपवेशने राज्येषु पर्यटन संवर्धने बलं दत्तवान्। उपवेशनस्य अध्यक्षतां कुर्वन् श्रीमोदी विकासक्रमे एकं राज्यं एकं वैश्विकं गन्तव्यम् इति उपक्रमे अपि बलं दत्तवान्। एतस्मिन् अवसरे श्रीमोदी समुदीरितवान् यत् एतेन न केवलं पर्यटनं वर्धयिष्यते अपितु नगराणां पर्यटनस्थले रूपे अपि विकासो भविष्यति। नवदेहल्यां गतदिने समायोजिते नीति आयोगस्य शासकीय परिषदः उपवेशने सर्वाणि राज्याणि सर्वे केन्द्रशासित प्रदेशाश्च ऐक्यभावनायाः अभिव्यक्तिं दत्तवन्तः। अथ ऑपरेशन सिन्दूर इति भारतीय सैन्याभियाने सशस्त्र बालानां पूर्णरूपेण समर्थनाय अपि भावनां प्रकटितवन्तः। नवदेहल्यां वार्ताहरान् सम्बोधयन् नीति आयोगस्य मुख्य कार्यकारी अध्यक्षः बीवीआर सुब्रह्मण्यम् इत्यसौ प्रोक्तवान् यत् पहलगाम स्थले यत्किञ्चिदपि जातं तेन देशवासिनः आक्रोशिताः आसन्। अथ सर्वैः एव अस्माकं रक्षाबलानां शौर्य पराक्रम वीरतायाः प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वस्य च प्रशंसा कृता। असौ प्रोक्तवान् यत् एतस्मिन् उपवेशने प्रधानमन्त्री बलं दत्तवान् यत् विकसितं भारतम् इति लक्ष्य प्राप्तये तथैव दलीय भावनायाः आवश्यकता यथा ऑपरेशन सिन्दूर इत्यभियाने प्रकटिता आसीत्।
Operation Sindoor is not a show of army strength. It has to be converted to social strength because society came out and supported our action. Similarly, Vikasit Bharat is not the idea of a chief minister or an individual or anybody in the system. It has to get converted into a people's movement.
प्रधानमन्त्री नरेन्द्र मोदी अद्य प्रातः 11 आकाशवाण्यां मन की बात इत्येतस्मिन् कार्यक्रमे देशैः वैदेशिकैश्च साकं स्वीय विचारान् विनिमयीकुर्यात्। मन की बात इत्येतस्य मासिक कार्यक्रमस्य एतत् 2021वां प्रसारणं स्यात्। कार्यक्रमस्य एतस्य प्रसारणं सम्पूर्णे आकाशवाणी दूरदर्शनतन्त्रे अथ AIR फलके न्यूज ऑन AIR इत्यत्र च स्यात्। कार्यक्रमस्य सजवं प्रसारणं सूचना प्रसारण मन्त्रालयस्य यूट्यूब वाहिनीषु अपि श्रोतुं शक्यते। कार्यक्रमस्य एतस्य हिन्दी भाषायां प्रसारणानन्तरं आकाशवाण्या क्षेत्रीय भाषासु अपि प्रसारणं करिष्यते। राष्ट्रिय जनतांत्रिक संयुतेः NDA इत्येतस्य सर्वे मुख्यमन्त्रिणः उपमुख्यमन्त्रिणश्च अद्य राष्ट्रिय राजधान्यां समायोक्ष्यमाणे विचार मन्थन सत्रे भागं स्वीकुर्युः। सुशासनम् इत्येतद् विषयम् अभिलक्ष्य एतत् एकदिवसीयं सत्रं भविता। सूत्रानुसारि प्रधानमन्त्री नरेन्द्रमोदी एतस्य उपवेशनस्य अध्यक्षतां विदध्यात्। एतस्मिन् उपवेशने भाजपा दलाध्यक्षः जगत प्रकाश नड्डाः, गृहमन्त्री अमित शाहः, रक्षामन्त्री राजनाथ सिंहः, नैके पदाधिकारिणश्चापि भागं स्वीकुर्युः। ब्रिक्स इति समूह देशानां संस्कृति मन्त्रिणाम् उपवेशनं श्वः प्रभृति ब्राजील देशे समायोक्ष्यते। भारतेन अपि एतस्मिन् उपवेशने भागं ग्रहीष्यते। संस्कृति पर्यटन मन्त्री गजेन्द्र सिंह शेखावतः भारतीय प्रतिनिधि मण्डलस्य अत्र नेतृत्वं विधास्यति। अन्ते च क्रीडावार्तासु इण्डियन प्रीमियर लीग इत्येतस्यां क्रिकेट लीग प्रतिस्पर्धायां गतरात्रौ क्रीडिते द्वन्द्वे देहली कैपिटल्स इत्येतेन दलेन पंजाब किंग्स इति दलं 6 स्तोभपुरस्सरं पराजितम्। प्रतिस्पर्धायाम् अद्य गुजरात टाइटन्स चेन्नई सुपर किंग्स इत्येतयोः दलयोः मध्ये मध्याह्ने 3:30 द्वन्द्वं स्यात्। अद्यैव अपरे द्वन्द्वे सनराइजर्स हैदराबाद कोलकाता नाइट राइडर्स इत्येतयोः दलयोः मध्ये साय 7:30 द्वन्द्वं भवेत् इति वार्ताः।